इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः जतिन शर्मा। आदौ मुख्य वार्ताः। केन्द्र सर्वकारेण चतुर्विंशत्यधिक द्विसहस्रतम वर्षस्य पञ्चविंशत्यधिक द्विसहस्रतम वर्षस्य च कृते महात्मा गांधी राष्ट्रिय ग्रामीण रोजगार गारंटी अधिनियमान्तर्गतं संशोधित पारिश्रमिकः अधिसूचितः। लोकसभा निर्वाचनस्य द्वितीय चरणस्य अधिसूचना निस्सारिता। भारत चीन सीमा प्रकरणे परामर्शार्थं समन्वयनार्थञ्च कार्यतन्त्रस्य इदं 39वां उपवेशनं बीजिंग नगरे सुसम्पन्नम्। युक्रेनस्य विदेशमंत्री दिमित्रो कुलेबा भारतस्य द्विदिवसीय आधिकारिक यात्रायै नवदिल्ल्यां समागतः। सर्वेभ्यः विश्वविद्यालयेभ्यः अयं निर्देशो दत्तः यत् ते प्रवेश परीक्षायाः स्थाने विद्यावारिधि कार्यक्रमेषु प्रवेशार्थं राष्ट्रिय पात्रता परीक्षायाः अंकानां उपयोगं कुर्युः। अपि च आईपीएल प्रतिस्पर्धायाम् अद्य सायं जयपुरस्य सवाई मानसिंह क्रीडांगणे राजस्थान रॉयल्स दलं दिल्ली कैपिटल्स दलं सम्मुखी करिष्यति। अथ वार्ताः विशदीकृत्य। केन्द्र सर्वकारेण चतुर्विंशत्यधिक द्विसहस्रतम वर्षस्य पञ्चविंशत्यधिक द्विसहस्रतम वर्षस्य च कृते महात्मा गांधी राष्ट्रिय ग्रामीण रोजगार गारंटी अधिनियमान्तर्गतं संशोधित पारिश्रमिकः अधिसूचितः। हरियाणायां अकुशल श्रमिकेभ्यः दैनिक पारिश्रमिकः 470-300 रूप्यकाणि, गोवायां 650-300 रूप्यकाणि, कर्णाटके 49-300, केरले 44-300 एवञ्च पंजाबराज्ये 22-300 रूप्यकाणि पारिश्रमिकत्वेन प्रदास्यते। ग्रामीण विकास मन्त्रालयेन कथितं यत् इयम् अधिसूचना अप्रैल मासस्य एकदिनांकात् कार्यान्विता भविष्यति। श्रमिकेभ्य इतः पूर्वं पारिश्रमिके संशोधनं गतवर्षस्य मार्च मासे समभवत्। लोकसभा निर्वाचनस्य द्वितीय चरणस्य अधिसूचना निस्सारिता अस्ति। अस्मिन् चरणे एकं केन्द्रशासित प्रदेशं एवं 12 राज्यानां 88 आसनेषु निर्वाचनं भविष्यति। अप्रैल मासस्य चतुर्थ दिनांक पर्यन्तं नामांकनं दातुं शक्यते। अस्य चरणस्य मतदानं अप्रैल मासस्य 26 दिनांके भविष्यति। जम्मू कश्मीरं विहाय सर्वेषु राज्येषु केन्द्रीय क्षेत्रेषु च नामांकनानां अन्वेषणं अप्रैल मासस्य 5 दिनांके अथ जम्मू कश्मीरे अप्रैल मासस्य 6 दिनांके च भविष्यति। भारत चीन देशाभ्यां भारत चीन सीमा क्षेत्रयोः पश्चिमी क्षेत्रे वास्तविक नियंत्रण रेखायां पूर्ण विघटन प्राप्तये सहैव अवशिष्ट प्रकरणानां निर्णयार्थं विचाराणां आदान प्रदानं विहितम्। विदेश मन्त्रालयेन अद्य कथितं यत् भारत चीन सीमा प्रकरणे परामर्शार्थं समन्वयनार्थञ्च कार्यतन्त्रस्य इदं 39वां उपवेशनं ह्यः बीजिंग नगरे सुसम्पन्नम्। उपवेशनावधौ उभाभ्यामपि पक्षाभ्यां वास्तविक नियन्त्रण रेखायाः विघटन प्रकरणे गहन चर्चा कृता। सहैव राजनैतिक एवं सैन्यवाहिनी माध्यमेन नियमित सम्पर्क स्थापनार्थमपि सहमतिः प्रकटिता। युक्रेनस्य विदेशमंत्री दिमित्रो कुलेबा इत्येषः विदेशमंत्री डॉ जयशंकरस्य निमंत्रणम् अधिकृत्य भारतस्य द्विदिवसीय आधिकारिक यात्रायै अद्य प्रातः नवदिल्ल्यां समागतः। स्वीय यात्रावधौ श्री कुलेबा इत्येषः विदेशमंत्रिणा सहैव उपराष्ट्रिय सुरक्षा परामर्शदात्रा सह आधिकारिक उपवेशनेषु एवं विविध कार्यक्रमेषु च भागं भजिष्यति। विदेश मन्त्रालयेन एकस्मिन् आख्याने प्रोक्तं यत् उभौ मन्त्रिणौ परस्परहितान् आलक्ष्य सहैव क्षेत्रीय एवं वैश्विक प्रकरणेषु द्विपक्षीय सहभागितायै चर्चां करिष्यतः। ओडिशायाः कटक सांसदः भर्तृहरि महताबः अद्य बीजेपी दले सम्मिलितः। श्रीमहताबेन कतिपय दिवसेभ्यः पूर्वं बीजेडी दलात् त्यागपत्रं दत्तमासीत्। नवदिल्ल्यां भाजपा मुख्यालये दलस्य वरिष्ठनेता एवं केन्द्रीय मंत्री धर्मेन्द्र प्रधानः सहैव दलस्य महासचिवः विनोद तावडे इत्यनयोः उपस्थितौ सः भाजपा दले सम्मिलितः। अवसरेऽस्मिन् तत्र केचन अन्येऽपि प्रमुख गणमान्याः भाजपा दले सम्मिलिताः। संस्कृत वार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.com इत्यत्र अथ newsonair चलदूरभाषीयतन्त्रांशे अपि समुपलब्धो भविष्यति। सर्वेभ्यः विश्वविद्यालयेभ्यः अयं निर्देशो दत्तः यत्ते प्रवेशपरीक्षायाः स्थाने विद्यावारिधि कार्यक्रमेषु प्रवेशार्थं राष्ट्रिय पात्रता परीक्षायाः अंकानां उपयोगं कुर्युः। विश्वविद्यालय अनुदानायोगस्य अध्यक्षेण एम जगदीश कुमारेण एकस्मिन् अन्तर्जालीय सन्देशे प्रोक्तं यत् 24-2000 वर्षस्य जून सत्रात् प्रवेश परीक्षायाः स्थाने विद्यावारिधि कार्यक्रमेषु प्रवेशार्थं राष्ट्रिय पात्रता परीक्षायाः अंकानां उपयोगं कर्तुं शक्यते। केन्द्र प्रशासनेन नागालैंड राज्यस्य 8 जनपदेषु अरुणाचल प्रदेशस्य 3 जनपदेषु आगामि मासस्य प्रथम दिनांकात् आरभ्य सशस्त्र सेनाधिनियमस्य विस्तारः कृतः। नागालैंड राज्यस्य अन्येषु 5 मण्डलेषु 21 आरक्षिस्थानकेषु अरुणाचल प्रदेशस्य 1 जनपदस्य 3 आरक्षिस्थानकेषु अपि अस्य विस्तारो कृतः। नागालैंड अरुणाचल प्रदेशयोः कतिपयेषु जनपदेषु आरक्षिस्थानकेषु च AFSPA संघटनं बहुवर्षेभ्यः प्रचलति, तस्य विस्तारः अपि काले काले भवति। अद्य नवदिल्ल्यां 24-2000 वर्षस्य सैन्यसेनाध्यक्षसम्मेलनम् आभासीयमाध्यमेन प्रत्यक्षमाध्यमेन च समारब्धम्। सम्मेलनमिदं भारतीयसेनायाः शिखरनेतृत्वस्य कृते अवधारणात्मकविषयेषु विचारविमर्शं कर्तुं, समग्रसुरक्षास्थितेः समीक्षाम् आकलनं च कर्तुं महत्वपूर्णमञ्चरूपेण कार्यं करोति। अस्य सम्मेलनस्य उद्देश्यः भारतीयसेनायाः समग्रविकासः वर्तते। थलसेनाध्यक्षः जनरल मनोज पाण्डे इत्येषः स्वीय मुख्यालयात् आभासीयमाध्यमेन अन्यप्रतिभागिभिः सह वार्तां करिष्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मुः सबलं प्रतिपादितवती यत् आधारभूतसंरचनाः एवं निर्माण परियोजनाः जलवायु अनुकूलत्वेन सहैव ऊर्जाकुशलत्वेन च निर्मिताः भवेयुः। अद्य राष्ट्रपति भवने CPWD इत्यस्य सहायक कर्मचारी अभियन्त्रणां समूहं सम्बोधयन्ती सा प्रोक्तवती यत् भवनानि, मार्गाः, अन्य च मूलाधाराः ऊर्जाकुशलाः सहैव पर्यावरणानुकूलाः भवेयुः। तया प्रोक्तं यत् अभियन्तारः स्वीय दृष्टिकोणे नवान्वेषिणः स्युः, अनेन भावि समाह्वानानि सम्मुखीकर्तुं वयं सिद्धाः भविष्यामः। राष्ट्रपतिना युवा अभियन्तारः परामृष्टाः यत् ते सहयोगात्मकतां सहैव प्रौद्योगिकी संचालित दृष्टिकोणं स्वीकुर्युः। राष्ट्रिय परीक्षाभिकरणेन अस्य वर्षस्य जेई मेन्स परीक्षायाः द्वितीय सत्रे परीक्षार्थिभ्यः तेषां परीक्षानगरस्य आवंटनार्थम् अग्रिमसूचना निस्सारिता। जेई मेन्स परीक्षायाः द्वितीय सत्रम् अप्रैल मासस्य 4th दिनांकात् 12 दिनांकं यावत् 21-3000 नगराणां विभिन्न केन्द्रेषु भविष्यति। एतेषु 22 नगराणि विदेशेषु सन्ति। इयं परीक्षा प्रत्येकदिनं द्वयोः चक्रयोः प्रचालयिष्यते। प्रथमचक्रस्य परीक्षा प्रातः 9 वादनात् मध्याह्न 12 वादनं यावत्, सहैव द्वितीयचक्रस्य 3 वादनात् आरभ्य सायं 6 वादनपर्यन्तं प्रचलिष्यति। भारतीय ऋतु विज्ञान विभागेन न्यूनतः सामान्य वृष्टेः पूर्वानुमानं कृतमस्ति। पश्चिम हिमालय क्षेत्रेषु देशस्य उत्तर पश्चिम भागेषु तत्समीपस्थेषु समतल क्षेत्रेषु च अग्रिम 4 दिनानि यावत् वर्षा भविष्यति। तत्र उक्तं यत् अन्यः नूतन पाश्चात्य विक्षोभः पश्चिम हिमालय क्षेत्रं प्रभावयिष्यति इति संभावना वर्तते, येन रविवासर पर्यन्तं जम्मू कश्मीर, लद्दाख, गिलगित बल्तिस्तान, मुजफ्फराबाद, हिमाचल प्रदेश, पंजाब, हरियाणा, चंडीगढ़, उत्तर प्रदेश, उत्तराखंड चेत्यादिषु स्थानेषु वज्रपातेन, विद्युत्प्रवाहेन च सह व्यापकरूपेण लघुवृष्टिः भवितुं शक्यते। आईपीएल प्रतिस्पर्धायाम् अद्य सायं जयपुरस्य सवाई मानसिंह क्रीडांगणे राजस्थान रॉयल्स दलं दिल्ली कैपिटल्स दलं सम्मुखीकरिष्यति। स्पर्धा अद्य सायं 7:30 समारप्स्यते। ह्यः रात्रौ हैदराबादस्य राजीव गांधी अन्ताराष्ट्रिय क्रीडांगणे सनराइजर्स हैदराबाद दलेन मुम्बई इंडियंस दलं 31 धावनांकैः पराजितम् आसीत्। इति वार्ताः।